तर्हि अद्यतनविषयः अस्ति स्नेहः इति. गतवर्गे अस्माभिः स्नेहस्य लक्षणवाक्यं परिशीलितमासीत्, चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः इति. तत्र दलसार्थक्यमपि कृतमासीत् अस्माभिः. तर्हि सावित्री भगिनी किञ्चित् वदति वा, लक्षणवाक्यं स्वीकृत्य चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः इति स्वीकृत्य तस्मात् तटस्थलक्षणवाक्यं कथं सिद्ध्यति इति सर्वं कृत्वा तत्र दलद्वयं किम् अस्ति इति.
अस्तु, चूर्णादिपिण्डीभावः हेतुर्गुणः स्नेहः जलमात्रवृत्तिः लक्षणवाक्यम् अस्ति. तत्र तटस्थलक्षणम् अस्ति कुत्र, धारणाकर्षणनिष्ठा कार्यता निरूपिता कारणताश्रय विलक्षणसंयोगनिष्ठा कार्यता निरूपिता कारणताश्रयत्वे सति गुणत्वम् इति. अत्र यद् अत्र यथा पृथक्त्वस्थले स्तरद्वयं वर्तते कार्यकारणभावस्य प्रभावः. प्रथमं तु उक्तमस्ति अत्र धारणकर्षणः, धारणाकर्षण इति धारणम् अपि च आकर्षणम् इति द्वयोः भवति. पिष्टे यदा जलेन संयुक्तः भवति किमर्थं चेत् तत्र विशिष्टसंयोगः भवति, पिण्डीभावम् इति वदामः. तदर्थं धारणाकर्षणयोः कारणं भवति पिण्डीभावः अथवा विशेषसंयोगः. तस्य कारणं भवति जलेन यः गुणः अस्ति स्नेहः इति सः. तदर्थं स्नेहः पिण्डीभावः अथवा विशेषसंयोगं प्रति कारणं भवति. अपि च विशिष्टसंयोगः अथवा पिण्डीभावः धारणकर्षणयोः कारणं भवति. स्तरद्वयं वर्तते कार्यकारणभावस्य. तदेव प्रथमगणमस्ति लक्षण धारणाकर्षणानि कारण धारणाकर्षणनिष्ठकारितानिरूपित कारणताश्रय विलक्षणसंयोगनिष्ठा कार्यतानिरूपित कारणताश्रयत्वे सति इति. तत्पर्यन्तम् इत्युक्ते धारणाकर्षणं कार्यं भवति चेत् तस्य कारणं तस्य कारणं भवति विशिष्टसंयोगः, यत् पिष्टे अस्ति अथवा पिण्डीभावः. सः अपि एकम् तदपि एकं कार्यं भवति, तस्य कारणं भवति स्नेहः यत् जले अस्ति. तत् प्रथमदलम् अस्ति. द्वितीयदलं गुणत्वम् इत्यपि स्थापितं. किमर्थं चेत् प्रथमदलस्य
अस्तु भगिनि, हा बहु समीचीनमासीत् भवत्या एतावत्पर्यन्तं यदुक्तम्. अस्तु, दलसार्थक्यविषये सुनील् महोदय वक्तुम् इच्छति वा किञ्चित्?
अत्र चित्रम् उपयुज्य वा
सावित्री भगिनी, अधुना एकनिमिषः कोऽपि ध्वनिः अस्ति, अपि च केन केन आगतं तदभ्यन्तरे, नामानि उच्यन्तम्.
लक्ष्मी अस्ति भगिनी, नमस्ते.
पुष्पा भगिनी,
नमस्कार.
पुष्पा भगिनी,
आमां नमस्कार भगिनी. सरला भगिनी अस्ति वा?
आं भगिनी, मम ध्वनि भङ्ग भवत्.
अस्तु अस्तु अस्तु, समीचीनं. हा,
इदानीं
अधुना सावित्री भगिनी यदुक्तवती, सा कथं दलद्वयं सिद्ध्यति इति सूचितवती खलु महोदय. प्रथमदलं किम् अस्ति?
अत्र दीर्घवाक्यमस्ति, धारणाकर्षणनिष्ठकारितानिरूपितकारणताश्रय पिण्डीभावनिष्ठकारितानिरूपितकारणताश्रयत्वमिति, अनन्तरं गुणत्वमिति द्वितीयम्.
हा समीचीनं, गुणत्वमिति द्वितीयदलं. तर्हि अधुना किञ्चित् चिन्तनं कारयतु, एकम् एकं दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति.
अत्र इदानीं गुणत्वम् इति दलं त्यजामः चेत् अत्र अन्यदीर्घवाक्यम् अस्ति तत्र पिष्टः इति समवायिकारणम् अस्ति तथा पिष्टे गुणत्वं नास्ति इति कारणेन तत्र पिष्टे अतिव्याप्तिः भवति।
हा बहु समीचीनमस्ति महोदय, बहु सम्यक् अस्तु। गुणत्वम् इति त्यजामश्चेत् तदा स्नेहस्य समवायिकारणं किम्?
पिष्टः समवायिकारणं भवति
तस्मिन् अतिव्याप्तिः
भवति।
अस्तु, तर्हि प्रथमदलं त्यजामश्चेत्
तत्र केवलं गुणत्वमेव इति भवति, अतः तत्र गुणत्वं यत्र कुत्रापि भवति तत्रापि अतिव्याप्तिः भवति।
हा सम्यक्, केवलं गुणत्वम् इत्यस्य उपादानेन सर्वेषु गुणेषु अतिव्याप्तिः इति कृत्वा दलद्वयमपि आवश्यकम् इति आगच्छति। बहु समीचीनमस्ति महोदय। अस्तु, तर्हि अत्र किञ्चित् वक्तुम् इच्छामि यद् गतवर्गे अपि धारणाकर्षणयोः भेदः कः इत्यस्य विषये अस्माकं किञ्चित् चर्चा जाता आसीत् खलु। तर्हि धारणम् इत्युक्ते हस्ते ग्रहणम् इति चिन्तनीयम्, कर्षणम् इत्युक्ते एकत्रीकरणम् इति तावत् चिन्तनीयमस्ति। परन्तु अन्ततो गत्वा यदा लक्षणवाक्ये वदामः धारणाकर्षणनिष्ठकार्यता इति, तदा एवं चिन्तनीयं यत् धारणम् इति एकं कार्यं, कर्षणम् इति एकं भिन्नं कार्यम्, उभयोः कार्ययोः कारणं किम् अस्ति? सुनील् महोदय, सुनील् महोदय अस्ति वा, श्रुतं वा?
म्यूट् मध्ये अस्ति। क्षम्यतां, पुनः पृच्छतु कृपया।
हा, अस्माभिः चर्चितमासीत् धारणम् अपि च कर्षणम् इति भिन्नभिन्नम् अस्ति इति। धारणमिति एका क्रिया, हस्ते ग्रहणम् इति, अस्तु, कर्षणम् इति एका क्रिया, एकत्रीकरणम् इति चिन्तयतु। हा, तर्हि धारणमिति भिन्नं, कर्षणमिति भिन्नम्, उभयोः कारणं किम् अस्ति? चिन्तयतु, धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयः कः?
अत्र विलक्षण विलक्षणसंयोगः अस्ति, पिण्डीभावः इति।
हा, पिण्डीभावः। हा अस्तु, समीचीनं। तर्हि कार्यद्वयम् अस्ति, धारणम् अपि च कर्षणम् इति, उभयोः एकमेव कारणं पिण्डीभावः। एकवारं वदामि, यतोहि प्रश्नः आगतः आसीत् यद् एतत् कार्यं सोपानद्वयात्मकं कार्यम् अस्ति वा इति, कर्षणं भूत्वा अनन्तरं धारणं भवति वा इति, तथा न चिन्तितव्यं। जलसंयोजनेन पिष्टे धारणमपि आगच्छति, कर्षणमपि कर्तुं शक्नु आगच्छति इति चिन्तनीयं भवति। तर्हि कार्यद्वयं प्रति उभयोः कार्यता या अस्ति, तां प्रति कारणता अस्ति पिण्डीभावे इति एव अस्ति वार्ता। अस्तु, इतः अग्रे सरेम। केन केन आगतम्? नमस्कार भगिनि, अनन्तरं अजितमहोदय अस्ति इति भावि। अस्तु अस्तु, तर्हि इतः अग्रे सरेम। अग्रे सरला भगिनी पठितुमिच्छति वा?
अस्तु, स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वं, यः तादृशपिण्डीभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते। स्नेहस्तु समवायेन जले विद्यमानः, स्व आशय संयुक्तसम्बन्धेन एव परम्परारूपेण पिष्टे भवति। स्वं स्नेह, स्व आशयजलं, स्व आशयसंयुक्तपिष्टं, तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठकारणता अवच्छेदकसम्बन्ध स्व आशयसंयुक्तरूपः। पिण्डीभावनिष्ठकार्यता अवच्छेदकसम्बन्धस्तु समवाय, अतः स्नेह पिण्डीभावं प्रति निमित्तकारणं भवति। इदानीं वयं जानीमः पिण्डीभावं वा तस्य भवति तस्य अधिकारणम् अस्ति पिष्टं समवायेन सम्बन्धे. ओके, पिष्टे समवायेन विलक्षणसंयोग एकगुण अस्ति, समवायेन तिष्ठति.
सः विलक्षणसंयोगः कः?
सः विलक्षणसंयोग पिण्डीभाव इति.
हा, बहु समीचीनम्. अस्तु, अग्रे.
पिष्टे अस्ति समवायसम्बन्धेन. स्नेहगुण इति जले अस्ति समवायसम्बन्धेन. सो स्नेह अस्ति जले, अधेय अस्ति स्नेह जलम् अस्ति तस्य अधिकरणं, पिष्टमस्ति अधिकरणं पिण्डीभावस्य अस्ति, द्वे समवायसम्बन्धेन अस्ति. अत्र द्रवयोः पिष्टम् अपि जलं तस्य संयोग करणीयम् अस्ति. परम्परा सम्बन्धः कथं वयं वदामः, स्वं भवति स्व आश्रयसंयुक्तः सम्बन्धेन परम्परारूपेण पिष्टे भवति. स्वं भवति स्नेह, तस्य आश्रयम् अस्ति जलम्. स्म आश्रयसंयुक्तसंयोगः तत् तत् संयुक्तत्वसम्बन्ध परम्परारूपेण पिष्टे भवति. यथा वयं जानीमः गन्धजलम् अस्ति, गन्धस्वम् अस्ति पृथ्व्यां समवायत्वेन संयुक्तत्वेन जले भवति. तथैव परम्परासम्बन्धः अस्ति अत्र, स्व आश्रयसंयुक्तत्वसम्बन्धेन स्नेहं पिष्टे भवति. स्नेह अस्ति स्वं, स्व आचरति जलं, स्व आश्रयसंयुक्तत्व पिष्टे भवति. तथा तादृशसंयुक्तसम्बन्धः पिष्टे अस्ति. स्नेहनिष्ठकारणताचिदकसम्बन्ध
पुनः वदतु. स्वं मध्ये त्रुटिः.
स्वं भवति स्नेह, तस्य आश्रय अस्ति जलं. स्वम् आश्रय, स्व आश्रय अस्ति जलं भवति पिष्टे संयोगे, जल पिष्टयो संयोगसम्बन्धः अस्ति. तत्र स्व आश्रयपिष्ठं, स्व आश्रयसंयुक्तपिष्ठं भवति.
स्वाश्रयसंयुक्तं पिष्टं भवति.
सो स्वं स्नेहं पिष्टं अत्र सम्बन्धः भवति स्व आश्रयसंयुक्तत्वसम्बन्ध.
हा, बहु समीचीनम्.
इदानीं
एवम् एवं वदतु, स्वाश्रयसंयुक्तं किम्?
कारणकी जलपिष्ट भिन्ने द्रवयो मध्ये संयोगः भवति.
हा, सत्यं. किन्तु अत्र स्वाश्रयसंयुक्तम् इत्युक्ते पिष्टं खलु? पिष्टे किं
भवति कारणं? तद् भवति कारणं प्रति पिष्टस्य पिण्डीभावः प्रति कारणं भवति.
हा, तत्सर्वं सत्यं भगिनी. मम प्रश्नः अस्ति, स्वाश्रयसंयुक्तं पिष्टम् इति वदामश्चेत् पिष्टे किं भवति?
पिष्टे स्व आश्रयसंयुक्तत्वं भवति.
समीचीनं. यथा बालके बालकत्वं, तद्वदेव. स्वाश्रयसंयुक्तं पिष्टम् इति वदामश्चेत् पिष्टे स्वाश्रयसंयुक्तत्वं
भवति.
समीचीनम्.
इदानीं स्नेहनिष्ठकारणता अवच्छेदकसम्बन्धः भवति स्व आश्रयसंयुक्तत्वरूप. अस्तु,
स्नेहनिष्ठकारणता इति वदामः. अस्तु, स्नेहः कस्य कारणम्?
स्नेहः भवति कारणता विलक्षणसंयोग प्रति पिण्डीभाव प्रति,
पिण्डीभावं प्रति इति वयं जानीमः. तदर्थमेव एतत् सर्वम् अधुना वयं चर्चयामः खलु. स्नेहनिष्ठकारणता पिष्टे, स्नेहनिष्ठकारणतां प्रतिपादयितुम् अस्माभिः किं कृतम् अधुना?
परम्परारूपसम्बन्ध प्रतिपादितं.
प्रतिपादितं. तर्हि स्वाश्रयसंयुक्तत्वसम्बन्धेन पिष्टे किम् अस्ति?
पिष्टे कार्यता कारणता भवति पिण्डीभावप्रति.
न न न हा पिष्टे अवश्यमस्ति कारणता इति तु सत्यं समवायिकारणं, किन्तु अत्र वयं किं कृतवन्तः, किमर्थम् अस्माभिः एतत् सर्वं करणीयमासीत्? स्नेहः जले समवायेन अस्ति इति वयम् उक्तवन्तः, परन्तु पुनः सः एव स्नेहः स्वाश्रयसंयुक्तत्वसम्बन्धेन कुत्र अस्ति?
पिष्टे अस्ति.
किमर्थं तत् साधनीयमासीत् अस्माभिः?
स्नेहस्य कारणं पिण्डीभावप्रति कारणता.
हा इति तु सत्यं, परन्तु तस्य आवश्यकता का? स्नेहः
द्वे भिन्नौ द्रवयो स्तः, जलम् एकं समान अधिक कार्याधिकरण अस्ति
तयोः
स्थापितम् आवश्यकम्.
हा हा किमर्थं तर्हि इत्युक्ते अत्र कार्यं किं कारणं?
कारणता अपि अस्ति कार्यता अपि अस्ति. पिष्टं भवति समान अधिकरण कार्याधिकरणम् एकं भवति पिष्टम् इदानीं.
हा सत्यं, पिष्टम् इति कार्याधिकरणं चेत् तस्मिन् कार्यं किं कारणं किम्?
कारणमस्ति स्नेह आश्रय स्व आश्रय संयुक्तत्व कारण.
भगिनि 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 मम प्रश्नः अस्ति, पिष्टम् इति कार्याधिकरणं खलु?
अस्तु
इति भवती उक्तवती, तर्हि पिष्टे कार्यं किम् अस्ति कारणं किम् अस्ति?
कार्यमस्ति धारण आकर्षणं कार्यम्.
उपरितन शीर्षकं शीर्षकं पठतु, उपरितन शीर्षकं.
स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम्.
अनेन किं जानीमः, कस्य कारणत्वं कस्य कार्यत्वम् अधुना वयं चर्चयामः.
ओके, स्नेह भवति कारणता पिण्डे पिण्डीभावं प्रति.
स्नेहः भवति कारणम्.
इदानीं निमित्तकारणम् उपरि यथा दत्तमस्ति, कारणता पिण्डीभावः भवति कारणताधारण प्रति.
अस्तु मम प्रश्नः अस्ति, कार्यं किं कारणं किम् इति, तस्य उत्तरं किमस्ति सावित्री भगिनी?
अस्तु, पिष्टे कार्यमपि अस्ति कार्यता अपि अस्ति कारणता अपि अस्ति भिन्नभिन्नसम्बन्धेन. कार्यता अवच्छेदकसम्बन्धः.
एकनिमिषः एकनिमिषः. पिष्टम् इति कार्याधिकरणं, सरला भगिनी
कार्याधिकरणं.
कार्याधिकरणम् इत्युक्ते किम्?
ओ अस्तु,
भगिनी
धारणाकर्षणं त्यजतु अधुना. अस्तु, धारणाकर्षणम् अन्ततो गत्वा आगच्छति, परन्तु अस्माकं चर्चा का इत्युक्ते स्नेहः अस्ति, स्नेहः पिण्डीभावं प्रति कारणम् अस्ति, तावदेव. तर्हि अस्यां चर्चायां कार्यं किम् अस्ति?
पिण्डीभावः.
पिण्डीभावः
हा इति एव मम प्रश्नः, पिण्डीभावः कार्यम् अस्ति, तर्हि कार्यं कुत्र अस्ति, कुत्र वर्तते? हा सम्यक् इति एव आवश्यकमासीत्, कार्यमपि पिष्टे अस्ति, कारणं किम् अत्र?
कारणमपि पिष्टे.
हा समीचीनं, स्नेहः इति कारणं घटस्य कपालस्य विषये चिन्तयतु. कपाले कपालः इति कार्याधिकरणं चेत् तत्र कपालः इति कारणमस्ति घटं प्रति, तर्हि कपालः स्वस्मिन् तिष्ठति इति वक्तव्यं भवति, अपि च घटः समवायेन कार्यं भूत्वा कार्याधिकरणे केनचित् सम्बन्धेन भवति इति वक्तव्यं भवति खलु. अतः किं वक्तव्यम् अत्र, पिष्टे कार्यं केन सम्बन्धेन अस्ति, कारणं केन सम्बन्धेन अस्ति इति वदतु एकवारम्.
ओके, पिष्टे कारणं भवति स्व आश्रय संयुक्तत्व सम्बन्धेन, कार्यं भवति समवायसम्बन्धेन.
हा बहु समीचीनम् इत्येव वार्ता, तदेव ज्ञातुम् इष्टवती. पिष्टम् इति कार्याधिकरणं चेत् तस्मिन् कारणकार्ययोः समानाधिकरण्यं स्थापनीयं वा न स्थापनीयं खलु हा एकः निकषः अस्ति कार्यकारणभावस्य समानाधिकरण्यं भवेत् इति उभयोः अतः कथञ्चित् स्नेहम् अथवा कारणं पिष्टे आनीतवन्तः कथम् आनीतवन्तः पिष्टे
परम्परासम्बन्धेन
सम्यक् परम्परासम्बन्धेन अपि च जानीमः पिण्डीभावः इति विलक्षणसंयोगः पिष्टे एव वर्तते समवायेन तत्र परम् अस्तु सम्यक् इति एव वार्ता
संयोगगुणे अन्तर्भूतः भवति विशिष्टसंयोगः इति कृत्वा संयोगगुणे अन्तर्भावः भवति
सत्यं भगिनि
अपि च पिण्डीभावः इति संयोगगुणः पिष्टे भवति स्वसमाय संयुक्तत्वसम्बन्धेन स्नेहत्वं स्नेहः अपि पिष्टे भवति
सत्यं
स्नेहः पिण्डीभावं प्रति निमित्तकारणं तस्मात् तदर्थं स्नेहः पिण्डीभावं प्रति निमित्तकारणं
स्नेहः पिण्डीभावं प्रति निमित्तकारणं खलु
अस्तु आम्
तर्हि निमित्तकारणम् अथवा यत्किमपि कारणं भवतु कार्याधिकरणे इत्युक्ते यत्र कार्यं वर्तते तत्रैव कारणेन भाव्यम् इति निकषः अस्ति किल तदर्थमेव अयं प्रयासः कृतः स्नेहः कुत्र वर्तते लक्ष्मी भगिनि
स्नेहः जले अस्ति
पिण्डीभावः कुत्र वर्तते
पिण्डीभावे पिष्टे अस्ति
तत्र कार्याधिकरणम् अथवा अधिकरणं समानम् अस्ति वा
कार्याधिकरणं समानं नास्ति इत्युक्ते स्नेहः जले अस्ति स्व जलं पिष्टे पिष्टे अस्ति इति कृत्वा स्व आश्रयसंयुक्तत्वसम्बन्धेन स्नेहः अपि पिष्टे अस्ति
सम्यक्
तादृशपरम्परासम्बन्धेन कार्याधिकरणे स्नेहः अपि च पिण्डीभावः पिष्टे अस्ति
पिण्डीभावः केन सम्बन्धेन अस्ति
पिण्डीभावः समवायसम्बन्धेन अस्ति
सम्यक् तर्हि
भवती प्रश्नं पृष्टवती मया पृष्टे कारणं किम् अस्ति कार्यं किम् अस्तु कारणम् अस्ति स्नेहकार्यम् अस्ति पिण्डीभाव
सत्यम्
अस्तु
अस्मिन् प्रसङ्गे अन्ततो गत्वा धारणाकर्षणम् आगच्छति इति सत्यम्
अस्तु
अस्मिन् प्रसङ्गे स्नेहः कारणं पिण्डीभावः कार्यम् अस्तु भगिनि इतः अग्रे सरेम तर्हि पिष्टम् इति कार्याधिकरणं तत्र स्नेहः इति कारणं परम्परासम्बन्धेन पिण्डीभावः इति कार्यं समवायेन सम्बन्धेन इति आगतमस्ति अस्तु भगिनि इतः अग्रे पठतु स्नेहनिष्ठा
अतः स्नेह
तृतीयपङ्क्त्यां स्नेहनिष्ठा तत्र पर्यन्तं
स्वं स्नेह स्वाश जलं स्वाशयुक्तपृष्ठपादस्य संयुक्तत्वं पृष्ठे इति स्नेहनिष्ठकारणता अवच्छेदकसम्बन्ध स्व आशयसंयुक्तत्वरूपः अवच्छेदक सम्बन्ध भवति वा धर्म भवति अत्र सम्बन्ध अस्ति स्व आशयसंयुक्तत्व कारणतायाः अवच्छेदकसम्बन्ध पिण्डीभावनिष्ठकार्यता अवच्छेदकसम्बन्धसमवाय वयं जानीमः पृष्ठे पिण्डीभाव समवायसम्बन्धेन अस्ति अत्र पिण्डीभावं प्रति अवच्छेदकसम्बन्धः भवति समवायसम्बन्धः सो कार्यतायाः अवच्छेदकसम्बन्धः समवायसम्बन्धः अस्ति कारणतायाः अवच्छेदकसम्बन्धः अस्ति स्व आश्रयसंयुक्तत्वरूपं
बहु सम्यक् अस्तु
अतः स्नेहपिण्डीभावं प्रति निमित्तकारणं भवति. इदानीं पिण्डीभावं प्रति स्नेहं भवति निमित्तकारणं, कारणं किमिति समवायसम्बन्ध समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति. अतः पिण्डीभावं प्रति स्नेहः भवति निमित्तकारणं.
बहु समीचीनमस्ति भगिनि. अस्तु, तर्हि निमित्तकारणम् अस्ति इति तु उक्तवन्तः. किमर्थं समवायिकारणं न स्यात्, असमवायिकारणं न स्यात् इति अग्रिमविषयः अस्ति. अस्तु, पश्येम. तदभ्यन्तरे केन केन आगतं नामानि?
अतिव्याप्तिः नास्ति.
अतिव्याप्तिः इति विषयः नास्ति भगिनि, केवलं कीदृशं कारणम् इत्यस्य चर्चा. अस्तु, केन आगतम्? शुकवनमहोदय केवलं शृणोति खलु? अस्तु, इतः अग्रे पुष्पा भगिनी अग्रिमपरिच्छेदं पठतु, अनन्तरं लक्ष्मी भगिनी सहायं करोतु कृपया स्पष्टीकरणार्थं यत्र यत्र आवश्यकं.
तथा हि समवायिकरणे कार्यता अवच्छेदकसम्बन्धः समवायः प्रथमासमवायिकरणे अपि सा एव, द्वितीया समवायिकरणे कारणे तु कार्यतावच्छेदकः स्वसमवायिसमवायित्वम्. समवायिकरणे कारणता अवच्छेदकसम्बन्धः तदात्म्यम्
तादात्म्यम्
तादात्म्यं तादात्म्यम् असमवायिकारणतयोः तु उभयोः अपि समवाय एव. वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायिसमवेतत्वं वा द्वितीयसमवायिकरणे कारणता अवच्छेदकः सेण्टेन्स् सम्पूर्णं नास्ति इति भाष्ये पक्षे च अस्मिन् कार्यता न परस्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेनैव. अत्र समवायिकरणे कार्यता अवच्छेदकसम्बन्धः समवायः, तत्तु कार्यता अवच्छेदकसम्बन्धः समवायिकरणे समवायः भवति.
हा, इति अवगतं खलु. समवायिकारणम् इत्युक्ते किं?
समवायिकारणे तत्तु तत्र कोऽपि द्रव्यं समवायं
अस्तु. लक्ष्मी भगिनी साहाय्यं करोति वा तत्र?
तत्र कारणं तादात्म्यसम्बन्धेन वर्तते, कार्यं समवायसम्बन्धेन वर्तते इति कृत्वा समवायिकरणस्य संज्ञा भवति. अनन्तरं प्रथमविध
अस्तु समीचीनं तत्तु सम्यक् आसीत्। तर्हि अत्र प्रथमवार्ता का, समवायीकारणे कार्यतावच्छेदकसम्बन्धः कः?
समवायः।
समवायः किमर्थं समवायः? भवती उक्तवती एव, इतोपि एकवारं स्पष्टीकरणाय।
कार्याधिकरणे समवायसम्बन्धेन अस्ति इति कृत्वा कार्यतावच्छेदकसम्बन्धः समवायः। कार्यं कार्याधिकरणे समवायसम्बन्धेन अस्ति।
हा हा इति अस्ति। पुष्पा भगिनी अवगच्छति वा किञ्चित्?
कार्याधिकरणे समवायसम्बन्धः अस्ति।
हा, कार्याधिकरणे कार्यं समवायसम्बन्धेन अस्ति इति कृत्वा कार्यतावच्छेदकसम्बन्धः समवायः। एवं चिन्तयतु, पृथिवी अथवा पृथिव्यां गन्धः अस्तु। पृथिवी पृथिवी गन्धस्य समवायीकारणम् अपि च गन्धः कार्यं। कार्यं केन सम्बन्धेन पृथिव्याम् अस्ति? समवायसम्बन्धेन, खलु? तर्हि अन्ततो गत्वा कार्यतावच्छेदकसम्बन्धः समवायः इति उच्यते। अस्तु सम्यक्। तर्हि अग्रे
अग्रे प्रथमविध असमवायिकारणम् इत्युक्ते तत्र कार्यं कारणं द्वयोपि कार्याधिकरणे समवायसम्बन्धेन भवति।
एवम् एवं करोतु, पेज् नम्बर् पृष्ठसङ्ख्या 90 इति पश्यतु। पश्यति वा
भगिनि महोदय?
हा हा, करपत्रं प्रेषितवान् आसीत् खलु? हा, तत्र प्रायः प्रथमविध समवायि असमवायिकारणस्य चित्रं न आसीत्, तदर्थम् अहं
चित्रं
हा नवतितमे पुटे अधोभागे सर्वे पश्यन्ति वा? नवति पृष्ठसङ्ख्या 90 इति पश्यन्तु, अधोभागे एकं चित्रम् अस्ति। तत्र अधुना अधुना भगिनी विवृणोतु तत्र असमवायिकारणं किम् अस्ति अपि च कार्यं किमस्ति इति।
अस्तु, अत्र कपालद्वयसंयोगः कपालद्वयसंयोगः संयोगः इति गुणः कपालद्वय द्वयोः कपालयोः उभयोः कपालयोः वर्तते समवायसम्बन्धेन वर्तते। अतः कपालद्वयसंयोगेन एव घटमिति कार्यं भवति। घटः कपाले समवायसम्बन्धेन अस्ति, अतः अत्र कार्याधिकरणं कपालः अस्ति। कार्याधिकरणे घटः समवायसम्बन्धेन कार्यं घटं समवायसम्बन्धेन कपाले अस्ति। कारणम् इति कपालद्वयसंयोगः अपि कपाले अथवा कार्याधिकरणे समवायसम्बन्धेन अस्ति। अतः प्रथमविधसमवायिकारणे कार्यम् अपि कारणमपि समवायसम्बन्धेन कार्याधिकरणे
वर्तते। तर्हि अधुना वदतु, प्रथमविध असमवायिकारणस्य दृश्यमिदं खलु? कपालद्वयसंयोगः इति समवायेन स्थित्वा समवायेन घटं जनयति इति प्रथमविध असमवायिकारणं। तस्मिन् कारणतावच्छेदकसम्बन्धः कः, कार्यतावच्छेदकसम्बन्धः कः?
कार्यतावच्छेदकसम्बन्धः
न चिन्तयतु, कारणं किं कपालद्वयसंयोगः? तर्हि हा, तत् भवती उक्तवती कपालद्वयसंयोगः समवायेन कपाले अस्ति इति कृत्वा कारणतावच्छेदकसम्बन्धः कः?
कपालः
सम्बन्धं पृच्छामि। भगिनि भगिनि अत्र तु सारल्यं सारल्यं वर्तते अत्र। सरला भगिनि किञ्चित्?
समवायसम्बन्धकारणतया अवच्छेदकसम्बन्धः भवति कपाले, अपि कार्यतया सम्बन्धः अपि समवायसम्बन्धः अस्ति, द्वयोः द्वयोः कार्यतायाः अथवा कार्यतायाः अवच्छेदकसम्बन्धसमवाय अस्ति प्रथमविध समवायिकारणे.
समीचीनं. लक्ष्मी भगिनी स्पष्टं वा?
अस्तु. कार्यता अवच्छेदकसम्बन्धः समवायः, अपि च कारणता अवच्छेदकसम्बन्धः अपि समवायः.
कः सम्बन्धः अवच्छेदकः इति निर्णेतुं केवलम् एतद् द्रष्टव्यम् अस्ति यत् कार्यं च कारणं केन केन सम्बन्धेन कार्याधिकरणे वर्तते इति, तावदेव.
आम्, किञ्चित् भ्रमः.
हा, यतोहि परम्परारीत्या गत्वा धर्मं स्वीकृतवन्तः खलु, स्वाश्रयसंयुक्तत्वम् इति धर्मं स्वीकृतवन्तः, किन्तु तादृशसम्बन्धः अपि अस्ति स्नेहपिष्टयोः मध्ये इति कृत्वा स्वाश्रयसंयुक्तत्वम् इति तत्र स्वीकृतवन्तः कार्याधिकरणे तेन सम्बन्धेन. अत्र कपालः कार्याधिकरणं, कपालद्वयसंयोगः समवायेन अस्ति कपाले इति कृत्वा कारणतावच्छेदकसम्बन्धः समवायः, कार्यतावच्छेदकसम्बन्धः अपि समवायः इति आगच्छति. बुद्धम्? हा, तर्हि इदानीं प्रथमवाक्यं पुनः पठतु तस्मिन् पुटे गत्वा. तथा हि
समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायः, प्रथमासमवायिकारणे अपि स एव. प्रथमासमवायिकारणे अपि कार्यतावच्छेदकसम्बन्धः समवायः इति इदानीमेव दृष्टवन्तः. अनन्तरं द्वितीयासमवायिकारणे तु कार्यतावच्छेदकः स्वसमवायिसमवायित्वम् इत्युक्ते द्वितीयविध असमवायिकारणे.
इदानीं पेज् 94 गच्छतु. सर्वे कृपया अनुसरन्तु. हा, पृष्ठसङ्ख्या 94 इति तत्र पश्यति वा भगिनि? अधोभागे किम् अस्ति चित्रं प्रथमतया वदतु.
अत्र कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते. कपालपरिमाणम् इति कारणं कार्याधिकरणमस्ति कपालः, समवायसम्बन्धेन कपाले अस्ति. घटपरिमाणम् इति कार्यं घटे समवायसम्बन्धेन अस्ति. घटः कपाले समवायसम्बन्धेन अस्ति इति कृत्वा घटपरिमाणं स्वम् इति स्वीकुर्मः चेत् स्व आश्रयः अस्ति घटः. स्व आश्रय समवायसम्बन्धेन कपाले अस्ति इत्युक्ते, अथवा अन्यरीत्या वदामः चेत् घटपरिमाणमस्ति स्वसमवायि घटः अस्ति. घटः अपि स्वसमवायि घटः अपि समवायेन कपाले अस्ति इति कृत्वा स्वसमवायि समवायित्वेन कपाले अस्ति. घटपरिमाणमिति कार्यं स्वसमवायि समवायित्वेन कपाले वर्तते. कपालपरिमाणम् इति कारणमपि समवायेन कपाले वर्तते. अत्र कारणतावच्छेदकसम्बन्धः समवायः, किन्तु कार्यतावच्छेदकसम्बन्धः स्वसमवायि समवायित्वम्.
हा हा, बहु समीचीनमस्ति भगिनि. स्वसमवायि समवायित्वम् इति आगच्छति. अस्तु, पुनः इममेव विचारम् अजितमहोदय प्रतिपादयति वा, यद्भगिनी प्रतिपादितवती? अजितमहोदय अस्ति किम्? अस्तु, वर्धिनि भगिनि.
आं भगिनि, पेज् 94. घटपरिमाणं कार्यं, कपालपरिमाणं कारणं. घटपरिमाणं घटे समवायसम्बन्धेन अस्ति. घटे समवायसम्बन्धेन कपाले अस्ति घटः. कारणं कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति.
अस्तु, इदानीं कार्यमस्ति घटपरिमाणं, तर्हि घटपरिमाणं कुत्र अस्ति?
घटे समवायसम्बन्धेन अस्ति, कपाले स्वसमवायसमवायत्वसम्बन्धेन अस्ति.
किमर्थं
परम्परासम्बन्धः?
हा, स्वम् इत्युक्ते किम् अत्र? स्वम् इत्युक्ते
सम्बन्ध.
लक्ष्मी भगिनी पुनः, स्वम् इत्युक्ते
घटपरिमाणम्.
हा, स्वम् इत्युक्ते घटपरिमाणं. स्वसमवायी कः?
स्वसमवायी
घटः.
हा, पुनः घटसमवायी कः वर्दिनी भगिनी?
कपालः.
कपालः. अन्ततो गत्वा घटपरिमाणं केन सम्बन्धेन कपाले वर्तते?
स्वसमवायसमवायित्वसम्बन्धेन अथवा परम्परासम्बन्धेन.
हा, परम्परासम्बन्धः इति एकं ब्राड् केटगरि, तस्मिन् स्वसमवायिसमवायित्वसम्बन्धेन. समीचीनं.
कपाले अस्ति.
हा, कपाले अस्ति. तर्हि कार्यतावच्छेदकसम्बन्धः कः?
कार्यतावच्छेदकसम्बन्धः श्वासे स्वसमवायसम्बन्ध.
इदानीं भवती उक्तवती यत् कार्यम् इति घटपरिमाणं, घटपरिमाणं कपाले अस्ति स्वसमवायिसमवायित्वसम्बन्धेन. अतः कार्यतावच्छेदकसम्बन्धः कः अत्र? तर्हि कः सहायं करोति? सुनीला महोदय अस्ति. स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति. अपि च कपालपरिमाणम् अस्ति केन सम्बन्धेन?
समवायसम्बन्धेन.
तर्हि कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः. अस्तु, बहु समीचीनं. अजितमहोदय आगतं वा?
भगिनि,
हा, भवन्तम् अहं
श्रूयते.
आमामां श्रूयते. अस्तु.
आमाम्, अहं किञ्चित् कनेक्षन् भ्रंशः अभवत्, परन्तु अहं शृणोमि एव. अस्तु भगिनि, इदानीम् अहं वदामि.
हा, तर्हि अत्र वयं चर्चितवन्तः यत् कपालपरिमाणम् इति कारणमस्ति कं प्रति? अजित् महोदय,
कपालपरिमाणं घटं प्रति कारणमस्ति.
कपालपरिमाणं कं प्रति कारणमस्ति? घटपरिमाणं प्रति, खलु? कपालः इति अवयवः
घटपरिमाणं प्रति.
हा, घटपरिमाणं प्रति कारणमस्ति कपालपरिमाणम्. अपि च अत्र कार्याधिकरणं किम् अस्ति?
अधोभागं कपाले अस्ति.
हा, कार्याधिकरणं कपालः. तर्हि कारणम् इति कपालपरिमाणं केन सम्बन्धेन अस्ति कपाले?
समवायसम्बन्धेन. समवायसम्बन्धेन.
हा, तर्हि कारणतावच्छेदकसम्बन्धः कः?
कारणावच्छेदसम्बन्धः.
अस्तु, कार्यं केन सम्बन्धेन कपाले अस्ति?
समवायसम्बन्धेन.
पश्यतु, तत्र कार्यं किम्?
कार्यं घटः.
अस्तु, सुनीलमहोदय,
अत्र घटपरिमाणम् इति कार्यं,
घटपरिमाणं कार्यं, वदतु महोदय. किञ्चित्
घटपरिमाणं कार्यं, घटपरिमाणम् अत्र स्व इति स्वीकृत्य घटे अस्ति, अतः घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले अस्ति.
स्वसमवायिसमवायित्वसम्बन्धेन कपाले अस्ति, यतोहि स्वसमवायी इत्युक्ते घटपरिमाणसमवायी घटः, पुनः घटसमवायी कपालः इति आगच्छति, खलु? अस्तु, तर्हि सुनीलमहोदय वदतु, कार्यतावच्छेदकसम्बन्धः कः?
अत्र स्वसमवायिसमवायित्वसम्बन्धः इति भवति.
सम्यक्. अस्तु, तर्हि इदानीं जानीमः एतत्तु द्वितीयविध असमवायिकारणस्य उदाहरणमस्ति. पुनः अधुना मूलवाक्यं प्रति गच्छतु महोदय. सुनीलमहोदय, अस्ति वा?
अत्र द्वितीयसमवायिकारणे तु कार्यतावच्छेदकः स्वसमवायिसमवायित्वम्, अतः अत्र स्नेहः इति स्वम् इति अस्ति.
एकनिमिष, एकनिमिष, तत्र स्नेहस्य विषये त्यजतु. स्नेहः इति पूर्वस्मिन् परिच्छेदे आसीत्. स्नेहः तु निमित्तकारणं खलु? अत्र निमित्तकारणे कीदृशसम्बन्धः, समवायिकारणे कीदृशसम्बन्धः इत्यादिकं चर्चितम् अधुना. तर्हि भवान् उक्तवान् द्वितीयविध असमवायिकारणे कार्यतावचेतकसम्बन्धः कः?
स्वसमवायिसमवायित्वम्.
अस्तु, अग्रे.
अग्रे समवायिकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यम्. अत्र समवायि कारणम् इति स्वीकरोति चेत् अत्र कारणतावच्छेदकसम्बन्धः तादात्म्यम् इति अस्ति, अतः तादात्म्यसम्बन्धेन कपालः अस्ति इति.
तादात्म्यसम्बन्धेन कपालः घटं जनयति इति कृत्वा कर्णतावच्छेदसम्बन्ध तादात्म्यम् इति तु जानीमः. अस्तु, इतः अग्रे किञ्चित्.
असमवायिकारणतयोः तु उभयोरपि समवाय एव. अत्र असमवायिकारणद्वयं वयं दृष्टवन्तः. अत्र द्वयोः अपि समवायः एव अस्ति, समवायसम्बन्धः एव अस्ति.
समवायसम्बन्धः कस्य अवच्छेदकः?
अत्र अत्र कारणतावच्छेदक अस्ति, अनन्तरं कार्यतावच्छेदकमपि अस्ति.
परन्तु असमवायिकारणतयोः इति उक्तम्. असमवायिकारणतयोः इति किमर्थम् उक्तम्? तत्र द्विवचने अस्ति, किमर्थम्?
अत्र एकम् अस्ति द्विविधम् अस्ति असमवायिकारणमिति द्विविधम् अस्ति. एकं तु कार्ये अस्ति समवायः, अथवा कपालद्वयसंयोगः कपाले अस्ति, घटः इति कार्यं कपाले अस्ति इति एकम् अस्ति. अनन्तरम् इदानीमेव दृष्टवन्तः घटपरिमाणम् इति कार्यं घटपरिमाणं प्रति कपालपरिमाणं कारणमिति. घटपरिमाणं स्व समवायित्वसम्बन्धेन कपाले अस्ति, कपालपरिमाणमिति अपि कपाले अस्ति इति.
तादृशद्वयं
कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति.
तदर्थमेव अत्र उक्तम् असमवायिकारणतयोः तु उभयोरपि समवायः एव इति. समवायः एव इति किमर्थम् उक्तं? पूर्वस्मिन् वाक्यं पठतु. समवायिकारणे
समवायिकारणे कारणता अवच्छेदकसम्बन्धः तादात्म्यम्.
अधुना कारणता अवच्छेदक एतावत् पर्यन्तं लक्ष्मीभगिनी यत् प्रतिपादितवती तत्र तत्र कार्यता अवच्छेदकसम्बन्धः अस्माभिः दृष्टः खलु. अधुना कारणता अवच्छेदकसम्बन्धस्य विषये समवायिकारणस्थले कारणता अवच्छेदकसम्बन्धः कः?
अत्र तादात्म्यसम्बन्धः.
असमवायिकारणस्थले
असमवायिकारणस्थले अपि अत्र समवायसम्बन्धः.
समवायसम् इदानीमेव भवान् उक्तवान् कपालपरिमाणं कारणं कपाले अस्ति इति कृत्वा तत्र कारणतावच्छेदकसम्बन्धः समवायः, तावदेव. अस्तु, प्रथमविध असमवायिकारणमपि स्वीकुर्मश्चेत् पेज् 90 मध्ये कपालद्वयसंयोगः असमवायिकारणमस्ति खलु? तत्रापि कारणतावच्छेदकसम्बन्धः कः? समवायसम्बन्धः. तावदेव अवगन्तव्यमस्ति. कार्यतावच्छेदकसम्बन्धः कुत्र कुत्र किं किम् आसीत् इति प्रथमं दृष्टवन्तः. अनन्तरं कारणता अवच्छेदकसम्बन्धः कुत्र कुत्र किमस्ति इति अधुना. अस्तु, अग्रे गच्छतु महोदय. बुद्धं वा? सर्वेषां मनसि स्पष्टता अजितमहोदय स्पष्टं
असमवायिकारणतयोः कथम् आयाति भगिनि असमवायिकारणं समवायः कथम् आयाति
इदानीमेव दृष्टवन्तः असमवायिकारणस्य द्वैविध्यम् अस्ति खलु प्रथमविध असमवायि एकनिमिष प्रथमविध असमवायिकारणं पेज् 90 मध्ये अस्ति पश्यतु एकवारं पेज् 94 मध्ये यद्वयं दृष्टवन्तः तद् द्वितीयविध असमवायिकारणं तदर्थमेव द्विवचने उक्तम् असमवायिकारणतयोः कारणतावच्छेदकसम्बन्धः समवायः अस्तु अग्रे सुनील महोदय
वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायि समवेतत्वं वा द्वितीयसमवायि कारणे कारणतावच्छेदकः
चित्रगन्धस्थले व्यभिचारनिवारणं सर्वं त्यजतु अस्तु अधुना नूतनविचारः कः द्वितीय असमवायिकारणे कारणतावच्छेदकसम्बन्धः कः इति उक्तम् समवायसम्बन्धः इति उक्तं किन्तु अत्र नूतन उदाहरणं दत्तं स्वसमवायिसमवेतत्वम् इति खलु तर्हि पुनः पेज् 94 गच्छतु तत्र अजितमहोदय शृणोतु भवान् प्रतिपादयति हा अनन्तरम् इदानीं किं करोति चेत् अधुना घटः कार्याधिकरणम् इति स्वीकरोतु अस्तु
क्षम्यता अहं वक्तुं परिश्रमं करोमि घटः अस्ति कार्याधिकरणं तत्र घटपरिमाणं समवायसम्बन्धेन घटे अस्ति कपालपरिमाणं स्वमिति स्वीकृत्य कपालपरिमाणं क्षम्यता घटपरिमाणं कारणमिति भवति कपालपरिमाणं
न न न तत्र भेदः नास्ति कारणं सर्वदा कपालपरिमाणं कार्यं सर्वदा घटपरिमाणं तत्र भेदः नास्ति महोदय अस्तु केवलं कार्याधिकरणं परिवर्तितं तावदेव
कपालपरिमाणं कपाले अस्ति समवायसम्बन्धेन अतः कपालपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन घटे अस्ति इति
हा तत्र किञ्चित् भेदः अस्ति अस्तु आरम्भे अधोगमनार्थं स्वम् इति घटपरिमाणं स्वीकृत्य अधः गच्छामश्चेत् स्वसमवायिसमवायित्वम् इति वदामः परन्तु अत्र किं कुर्मः कपालपरिमाणंतः कपालं प्रति अधः गच्छामः तर्हि स्वसमवायि इति सम्यक् पुनः कपालतः घटं प्रति उपरि गच्छामः खलु उपरि गमनार्थं किं योजनीयम् अत्र
अत्र इदानीं कपालपरिमाणं स्वमिति अतः स्वसमवायि भवति कपालः अतः अत्र स्वसमवायिसमवायित्वं अत्र घटे भवति
कोऽपि साहाय्यं करोति वा समीचीनम् उपरि गमनार्थं महोदय समवेतः इति वक्तव्यं यद्यपि समवायी इति सत्यमेव समवायः यस्मिन् अस्ति इति इणि प्रत्ययं कृत्वा कपालः अपि समवायी घटः अपि समवायी इति सत्यमेव परन्तु उपरि गमनार्थं समवेतः इत्यस्य प्रयोजनम् अस्तु घटः कपालसमवेतः इत्युक्ते समवायसम्बन्धेन स्थितः इति आगच्छति अस्तु इदानीं वदतु कपालपरिमाणं घटे केन सम्बन्धेन वर्तते
कपालपरिमाणं स्वसमवायिसमवेदत्वसम्बन्धेन भवति
कुत्र
घटे भवति
हा घटे भवति समीचीनम् इति एकमस्ति घटः इति स्वीकुर्मश्चेत् अस्तु अजितमहोदय अधुना वक्तुं प्रयत्नं करोति वा किञ्चित्
भगिनि तत्र उपरि गत्वा समवेदत्वम् अधो गत्वा समवायत्वम् इति
सम्यक्, समीचीनं समीचीनं, अस्तु. हा, एतद् एतद् अवगतं चेत् अधुना एतद् वदतु, घटः घटः इति कार्याधिकरणं भवति, अस्तु. घटः इति कार्याधिकरणं, कारणं किम् अत्र?
कारणकपालः.
कस्य कारणमिति द्रष्टव्यम्. अधुना घटपरिमाणम् इति कार्यम् अस्ति चेत् तस्य कारणमस्ति कपालपरिमाणं. घटपरिमाणम् इति कार्यम्, अस्तु, कपालपरिमाणम् इति कारणम्. बुद्धम्?
कारणम्.
अधुना घटः इति कार्याधिकरणं. कार्याधिकरणे कार्यमपि च कार्यम् उभाभ्यां भवितव्यं खलु. तर्हि कथञ्चित् कपालपरिमाणं घटं प्रति नयतु. कथं नयति?
कथं नयति इत्युक्ते कपालपरिमाणं स्वसमवायसम्बन्धेन स्वसमवायसमवेदत्वं घट घटः इति.
अत्र स्वम् इति कपालपरिमाणम्, अस्तु. अधुना करोतु किमपि किञ्चित् स्वम् इति कपालपरिमाणं. तर्हि स्वसमवायी कः?
तर्हि स्वसमवायी कपालः.
पुनः कपालसमवेतः कः?
कपालसमवेतः घटः.
घटः, अस्तु. तर्हि अन्ततो गत्वा कपालपरिमाणं घटे केन सम्बन्धेन वर्तते?
कपालपरिमाणं स्वसमवाय समवेदसम्बन्धेन
घटे वर्तते.
घटे वर्तते.
सम्यक्, अस्तु, समीचीनम्. अपि च घटपरिमाणं केन सम्बन्धेन घटे वर्तते?
घटपरिमाणं स्वसमवायसम्बन्धेन.
समवायसम्बन्धेन. अन्ततो गत्वा कार्यतावच्छेदकसम्बन्धः कः? लक्ष्मी भगिनी,
कार्यतावच्छेदकसम्बन्ध,
लक्ष्मी भगिनी किञ्चित् साहाय्यं करोति वा अत्र?
अस्तु, घटपरिमाणस्थले कार्यता अवच्छेदकसम्बन्धः, कार्यतावच्छेदकसम्बन्धः स्वसमवायिसमवायिसम्बन्धः.
अत्र किं कुर्मः इति सत्यमेव भवती यद् वदति, किन्तु अधुना वयं किं कुर्वन्तः स्मः अत्र?
अत्र उपरि गमने घटपरिमाणं स्वसमवेतसमवेतत्वसम्बन्धेन अस्ति.
भगिनि एकनिमेषः, अत्र भवती यद् उक्तवती स्वसमवायिसमवायित्वं, तत् कपालः कार्याधिकरणमिति अधिकृत्य. अधुना वयं कस्य अभ्यासं कुर्मः इति चेत् घटः कार्याधिकरणम् इति स्वीकृत्य.
अस्तु, घटः कार्याधिकरणम् अस्ति चेत् घटपरिमाणं समवायसम्बन्धेन घटे अस्ति.
कपालपरिमाणं
कपालपरिमाणं स्वसमवायिसमवेतत्वसम्बन्धेन अस्ति.
समीचीनम्. अन्ततो गत्वा कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः कः इति वदतु.
कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः, कारणतावच्छेदकसम्बन्धः स्वसमवायिसमवेतत्वसम्बन्धः.
स्वसमवायिसमवेतत्वसम्बन्धः, बहु समीचीनम्. अस्तु, तर्हि एतदस्ति द्वितीय असमवायिकारणस्थलस्य उदाहरणम्. द्वितीय असमवायिकारणस्थले कथञ्चित् परम्परासम्बन्धः आगच्छति एव. कपालः अधिकरणं भवतु, घटः भवतु, एकत्र तु आगच्छति एव. बुद्धं वा? अस्तु, तर्हि अग्रे गच्छेम. अजितमहोदय, तत्र गच्छतु. द्वितीयपरिच्छेदे अस्माकं मूलपृटे पश्यतु पुनः. द्वितीय असमवायिकारणे इति अस्ति खलु, अन्तिमवाक्यं पठतु.
द्वितीय असमवायिकारणे कारणावच्छेदकः पक्षे जास्मिन्
एकनिमिष द्वितीय असमवायिकारणे कारणतावच्छेदकः कः पूर्वं किम् अस्ति
द्वितीय
असमवायिकारणे
कारणतावच्छेदकः
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 भवान् उक्तवान् एव स्वसमवायी एकनिमिषः स्वसमवायी समवेतत्वम् इति अधुना उक्तवान् खलु
स्वसमवायी समवेदत्वम्
इति द्वितीय असमवायिकारणे कारणतावच्छेदकः अस्तु अग्रे
अग्रे पक्षे चास्मिन् कार्यता परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेनैव
घटपरिमाणम् इति कार्यं केन सम्बन्धेन आसीत् घटे
समवायसम्बन्धेन
तर्हि घटपरिमाणं कार्यमस्ति वा कारणमस्ति वा कार्यमस्ति खलु
घटपरिमाणं कार्यमस्ति कार्यमस्ति
अस्तु अतः कार्यतावच्छेदकसम्बन्धः कः
कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः
समवायसम्बन्धः अस्तु समीचीनमस्ति तर्हि अस्मिन् परिच्छेदे किं किम् उक्तम् इति चेत् समवायीकारणस्थले अपि च द्वयोः असमवायीकारणस्थले कारणतावच्छेदकसम्बन्धः कीदृशः भवति कार्यतावच्छेदकसम्बन्धः कीदृशः भवति इति उक्तम् अस्मिन् परिच्छेदे एतावत्पर्यन्तं वयं यत्किमपि चर्चितवन्तः अस्तु एतस्याः चर्चायाः कारणम् अस्ति यत् निमित्तकारणस्थले एतादृशसम्बन्धाः न भवन्ति इति सूचना दातुमेव एतत् सर्वं सञ्जातम् अत्र कोऽपि प्रश्नः वा कस्यचित् अथवा किञ्चित् भ्रमः नो चेत् अग्रे सरेम अस्तु अग्रे वर्धिनी भगिनी पठतु सावित्री भगिनी किञ्चित् साहाय्यं करोतु अनन्तरं वर्धिनी भगिनी
एवञ्च प्रथमतया समवायतादात्म्ययोः निवेशे समवायिकारणत्वम् उभयत्र समवायनिवेशे आद्यम् असमवायिकारणत्वं समवाययोः निवेशे वक्ष्यमाणरीत्या समवेतत्वयोः वा निवेशे द्वितीयम् असमवायि कारणत्वमिति सिद्धे एतद् भिन्नः यो यः कार्यकारणभावः तत्रत्यं कारणत्वं निमित्तकारणत्वमिति उच्यते यथा प्रकृते स्नेहस्य पिण्डीभावं प्रति पिण्डीभावनिष्ठकार्यतायाः समवायेन अवच्छेदे अपि स्नेहनिष्ठकारणतायाः स्वाश्रयसंयुक्तत्वसम्बन्धेन अवच्छेदात् न हि सः सम्बन्धः पूर्वोक्तेषु अन्तर्भवति अतः तादृशपिण्डीभावं प्रति स्नेहः निमित्तकारणम्
अस्तु प्रायः प्रथमबिन्दुं भवती एव वक्तुं शक्नोति प्रयत्नं करोतु एवं च
प्रथमतया समवायतादात्म्ययोः निवेशे समवायिकारणत्वं समवायतादात्म्ययोः निवेशे समवायिकारणत्वं
हा अस्तु इत्युक्ते किम् समवायिकारणस्य लक्षणं किम् तादात्म्येन स्थित्वा समवायेन
समवायेन कार्यं जनयति
इति समवायिकारणस्य लक्षणं खलु समवायिकारणस्य लक्षणम् अस्ति. अस्तु, तर्हि समवायिकारणस्थले कार्यतावच्छेदकसम्बन्धः कः भगिनि? भवती अधुना उक्तवती समवायिकारणम् इत्युक्ते किं? तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति. तर्हि समवायिकारणस्थले कार्यम् अस्ति समवायसम्बन्धेन, कारणमस्ति तादात्म्यसम्बन्धेन खलु. तर्हि अत्र कार्यतावच्छेदकसम्बन्धः कः?
कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः.
कारणतावच्छेदकसम्बन्धः
समवायसम्बन्धः एव.
तादात्म्यसम्बन्धः खलु?
तादात्म्यसम्बन्धः.
अतः एव उक्तं समवायतादात्म्ययोः निवेशे समवायिकारणत्वं सिद्ध्यति. बुद्धम्? हा, इति प्रथमबिन्दुः. द्वितीयबिन्दुं बिन्दुः सावित्री भगिनी किञ्चित् प्रतिपादयति वा?
आं भगिनि, प्रयत्नं करोमि. उभयत्र समवायिनिवेशे आद्यसमवायिकारणत्वम् अत्र उभयत्र समवायनिवेशे यथा पूर्वं वयं दृष्टवन्तः आहत्य अत्र पूर्वस्मिन् परिच्छेदे यदस्ति तस्य पुनः विवरणं दत्तम् अस्ति इति भाति. उभयत्र समवायनिवेशे आद्यसमवायिकारणत्वम् इत्युक्ते असमवायिकारणं कार्याधिकरणे भवति, अपि च कारणस्य अधिकरणे अपि भवति. अधिकरणं यत्र कुत्रापि स्वीकर्तुं शक्यते.
अस्तु अस्तु, एकं चिह्नं ददामि. अत्र प्रथमवार्ता अस्ति, प्रथमबिन्दुः समवायिकारणविषये, द्वितीयबिन्दुः आद्य असमवायिकारणविषये.
अस्तु 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 अस्तु, आद्य असमवायिकारणम् इत्युक्ते यत्र कपालद्वयसंयोगः भवति तद् उदाहरणं भवति. तत्र कार्यता अवच्छेदकसम्बन्धः समवायः, कारणता अवच्छेदकसम्बन्धः अपि समवायः.
हा, बहु समीचीनम्. उभयत्र इत्युक्ते किं तर्हि?
कार्यता अपि च कारणता द्वयोः स्थले समवाय स्थापनेन आद्य असमवायिकारणस्य लक्षणं दत्तम् अस्ति इति.
अस्तु, समीचीनं. तर्हि प्रथमबिन्दुः अस्ति समवायिकारणविषये. अस्तु, तत्र एतद् अवगच्छन्तु, युगलं, सम्बन्धयुगलं पश्यन्तु. युगलम् इत्युक्ते पेर्. अस्तु, कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः इति तादृशयुगलं मनसि स्थापयित्वा अग्रे सरेम. समवायिकारणस्थले कीदृशमस्ति युगलम्?
समवायिकारणस्थले समवायः तादात्म्य, कार्यता अवच्छेदक समवायः, कारणता अवच्छेदक तादात्म्यम्.
अस्तु, समीचीनम्.
आद्य असमवायिकारणस्थले द्वयोः समवायः,
कार्यतावच्छेदकसम्बन्धः समवायः, कारणतावच्छेदकः अपि समवायः इति आगच्छति, पेर्स् इति युगलम्. अस्तु, तृतीयबिन्दुः अस्ति द्वितीय असमवायिकारणविषये. अस्तु भगिनि.
स्वसमवायि समवायित्व समवाययोः निवेशे वक्षमाणरीत्या समवायस्वाश्रयसमवेतत्वयोर्वा निवेशे द्वितीय असमवायिकारणत्वमिति सिद्धे एतद् भिन्नः. अस्तु, अत्र यो यः कार्यकारणभावः तत्रत्य कारणत्वं निमित्तकारणत्वम् इति उच्यते. अस्तु, अत्र तृतीयबिन्दुः अस्ति द्वितीय असमवायिकारणस्य लक्षणम्. अत्र वयं दृष्टवन्तः यत् यत्र कपालः कार्याधिकरणे भवति तत्र कार्यता अवच्छेदकसम्बन्धः भवति, स्वसमवायि समवायित्वसम्बन्धः, अपि च कारणता अवच्छेदकसम्बन्धः भवति समवायः. इत्युक्ते स्वसमवायि समवायित्व अपि च समवायः, कार्यता कारणतायाः अवच्छेदकः. द्वितीय बिन्दुः आसीत् तत्र यत्र घट एव कार्यादिकरणम् इति स्वीकुर्मः चेत् तत्र कार्यता अवच्छेदकसम्बन्धः समवायः, अपि च कारणता अवच्छेदकसम्बन्धः भवति स्वसमवायि समवेतत्वसम्बन्धः इत्येव द्वयोः निवेशे द्वितीयसमवायिकारणस्य लक्षणं सिद्धं भवति इति अत्र आहत्य अर्थः भवति.
समीचीनम्. अस्तु, तर्हि द्वितीय असमवायिकारणस्थले तादृशपरम्परासम्बन्धं दृष्टवन्तः. कीदृशः? स्वसमवायिसमवायित्वम् अपि च स्वाश्रयसमवेतत्वम् अथवा स्वसमवायिसमवेतत्वम् इति अपि वक्तुं शक्यते. अस्तु, परन्तु यथा मया उक्तं, युगलं मनसि भवेत्. स्वसमवायिसमवायित्वं समवायः अथवा समवायः अथवा स्वाश्रयसमवेतत्वं, तादृशं कुत्र सिद्ध्यति भगिनि?
द्वितीय असमवायिकारणलक्षणे.
अस्तु, इतः अग्रे.
तत्रत्यः कारणत्वं निमित्तकारण. अस्तु, अत्र पुनः पठामि. अत्र वक्षमाणरीत्या समवायस्वाश्रयसमवेतत्वयोर्वा निवेशे द्वितीय असमवायिकारणत्वम् इति सिद्धे एतद् भिन्नः. यो यः कार्यकारणभावः तत्रत्यं कारणत्वं निमित्तकारणम् इति उच्यते. अस्तु, यत् द्वयोः अन्तर्गतः नास्ति तत् भिन्नः निमित्तकारणम् इति स्वीकृतम् अस्ति इति वा?
द्वयोः न, अत्र बिन्दुत्रयं दृष्टं खलु?
आम् आम्,
तत्सर्वं मिलित्वा एतद् भिन्नः अथवा एतेभ्यः भिन्नः, त्रिभ्यः समवायिकारणम् आद्य असमवायिकारणं द्वितीय असमवायिकारणम् एतेभ्यः भिन्नः यः कोऽपि कार्यकारणभावः भवति सः
निमित्तकारणमिति उच्यते.
तत्र निमित्तकारणत्वम् इति आगच्छति इति उक्तम्.
यथा प्रकृते स्नेहस्य पिण्डीभावं प्रति. अस्तु अस्तु, तत्र कार्यता अवच्छेदकसम्बन्धः आसीत् समवायः, अपि च कारणता अवच्छेदकसम्बन्धः आसीत् स्वसमवायि संयुक्तत्वसम्बन्धः
अथवा स्वाश्रय अपि वक्तुं शक्यते.
स्वाश्रय संयुक्तत्वसम्बन्धः पिण्डीभावनिष्ठा कार्यतायाः समवायेन अवच्छेदे अपि स्नेहनिष्ठा कारणतायाः स्वाश्रयसंयुक्तत्वसम्बन्धेन अवच्छेदात्. अस्तु, यथा इदानीमेव उक्तं तत्र यतोहि कार्यता अवच्छेदकसम्बन्धः समवायः भवति तथापि कारणता अवच्छेदकसम्बन्धः भवति स्वाश्रयसंयुक्तत्वसम्बन्धः, यत् पूर्वं न दृष्टम्. एते यत्किमपि परिशीलनम् अभवत् समवायिकारणम् असमवायिकारणं भिन्नभिन्न अधिकरणं यत्र कुत्रापि एतत् सम्बन्धः कारणतायाः अवच्छेदकः न आसीत् तदर्थम् अत्र निमित्तकारणमिति स्वीकुर्मः इति. न हि सः सम्बन्धः पूर्वोक्तेषु अन्तर्भवति, अतः तादृशपिण्डीभावं प्रति स्नेहः निमित्तकारणम्. यत् किमपि परिशीलितम् अस्माभिः पूर्वम् अत्र तत्र यत्र कुत्रापि स्वाश्रयसंयुक्तत्वसम्बन्धम् इति न दृष्टवन्तः, तदर्थम् अत्र पिण्डीभावं प्रति स्नेहः निमित्तकारणम् इति वदामः इति.
समीचीनम्. अस्तु, सर्वेषां मनसि स्पष्टता अस्ति वा इति किञ्चित् पश्येम. एवं कुर्मः, तर्हि सरला भगिनी पुनः एकवारं वदति वा तत्र बिन्दुत्रयं किम् आसीत् अपि च स्नेहस्य स्थले अन्यत् भिन्नं किम् अस्ति इति.
अस्तु भगिनि, प्रथमं बिन्दुः अस्ति समवायिकारणं,
समवायिकारणे कारणता अस्ति तादात्म्यसम्बन्धेन कार्यता भवति समवायसम्बन्धेन.
अस्तु अस्तु, अत्र एकं वक्तव्यम् अस्ति, कारणता भवति इति न वदामः, कारणं भवति तादात्म्यसम्बन्धेन, कारणता अवच्छेदकसम्बन्धः तादात्म्यः, तथा वक्तव्यम्.
अस्तु,
यतोहि कारणं खलु, कारणं खलु भवति कार्याधिकरणे. हा
अस्तु, सो कार्याधिकरणे कपाले यथा उदाहरणे कार्यतायाः सम्बन्ध अवच्छेदकसम्बन्धः भवति अस्ति, समवायसम्बन्ध कारणतायाः अवच्छेदकसम्बन्धः अस्ति, तादात्म्यसम्बन्ध इति अस्ति समवायिकारणत्वं प्रथमविध. समवायिकारण एकम् अस्ति, द्वितीय अस्ति समवायिकारण, प्रथमविध समवायिकारण यथा कपालद्वयसंयोग समवायेन कपाले अस्ति, कपालसमवायेन घटं निर्माणं करोति, कारणताया अवच्छेदकसम्बन्धः अस्ति समवायसम्बन्ध, कार्यतायाः अवच्छेदकसम्बन्ध अपि समवायसम्बन्ध अस्ति, द्वे कार्यताया अपि कारणतायाः अवच्छेदकसम्बन्धः समवाय अस्ति अत्र. आद्यसमवायिकारणत्वम् अति इति भवति प्रथमविधसमवायिकारणे. तृतीयबिन्दुः अस्ति यथा घटपरिमाणं यदि स्वीकुर्मः कार्यं, कपालपरिमाणं स्वीकुर्मः कारणं, घटपरिमाणं स्वम् इति घटपरिमाणं स्वं तस्य समवायी अस्ति घट, घटस्य समवायी पुनः अस्ति कपाल, कार्याधिकरणे एकस्मिन् कपाले अस्ति कारणता कपालपरिमाणं परिमाण समवायसम्बन्धेन कारणता अस्ति, तस्य अवच्छेदक कारणताया अवच्छेदकसम्बन्धः अस्ति समवायसम्बन्ध, कार्यतायाः अवच्छेदक भवति स्वसमवायितत्वेन समानाधिकरणे कपाले. अथवा द्वितीयपक्षे भवति यदि परिमाणं वयं घटं समानाधिकरणं यदि वयं स्वीकुर्मः, तत्र घटपरिमाणं भवति कार्यं, घटपरिमाणं कार्यं भवति समवायेन घटे, तो कार्यताया अवच्छेदकसम्बन्धः अस्ति अत्र समवायसम्बन्ध, कारणता भवति स्वं भवति कपालपरिमाणं, स्वसमवायी अस्ति कपाल, अत्र समवायेन घटे भवति समवायितत्वं, सो कारणताया अवच्छेदकसम्बन्धः भवति स्वसमवायि समवेतत्वसम्बन्ध.
हा अस्तु, समीचीनं. तर्हि एतत् कुत्र सम्भवति?
एतत् एतत् त्रयो समवायिकारणत्व समवायिकारण
द्वितीय समवायिकारणस्थले
अस्तु, किन्तु स्नेह
अस्तु अस्तु, एवं कुर्मः. हा एवं कुर्मः. अस्तु, समवायिकारणस्थले प्रथमविध असमवायिकारणस्थले द्वितीयविध असमवायिकारणस्थले कीदृशसम्बन्धाः भवन्ति इति भवती उक्तवती, समीचीनम्. इतः अग्रे लक्ष्मी भगिनी किञ्चित् वदतु, स्नेहः पिण्डीभावः अत्र किम् अस्ति?
अस्तु, स्नेहः स्नेहः जले समवायेन अस्ति, जलं पिष्टे संयुक्तः अस्ति इति कृत्वा स्नेहः स्वसमवायी संयुक्तत्वेन पिष्टे अस्ति. अनन्तरम् इदानीं पिष्टः कार्याधिकरणम् अस्ति. अनन्तरं अन्यत् अस्ति अत्र पिण्डीभावः अपि कार्याधिकरणे पिष्टे अस्ति. पिण्डीभावः इति कार्यता पिष्टे अस्ति समवायसम्बन्धेन अस्ति. अत्र स्नेहः पिण्डीभावं प्रति कारणं तत्र द्वितीयमेव असमवायी कारणम् इति न वक्तुं शक्नुमः.
हा, न वक्तुमेव शक्नुमः खलु भगिनि, तदर्थमेव निमित्तकारणम्.
तदर्थमेव निमित्तकारणम्. आम्.
हा, स्नेहनिष्ठकारणतायाः अवच्छेदकसम्बन्धः कः?
स्नेहनिष्ठकारणतायाः अवच्छेदकसम्बन्धः
स्वसमवायीसंयुक्तत्वसम्बन्धः इति वक्तुं शक्यते. तादृशकारणता अवच्छेदकत्वम् उपरि कुत्रचित् दृष्टं वा? यतोहि समवायिकारणस्थले कारणता अवच्छेदकः तादात्म्यः. पुनः प्रथमविध असमवायिकारणस्थले कारणता अवच्छेदकः समवायः एव. द्वितीयविधस्थले एकवारम् अस्ति समवायः, द्वितीयवारम् अस्ति किं? इति यत्र कुत्रापि पश्यतु तत्र स्वाश्रयसंयुक्तत्वसम्बन्धः कारणता अवच्छेदकसम्बन्धः नास्ति खलु. अतः स्नेहः कीदृशं कारणं पिण्डीभावं प्रति?
निमित्तकारणम्.
निमित्तकारणमेव इति आगच्छति. अस्तु, इतोपि एकः प्रश्नः आगतः वर्गस्य अन्ते. इदानीं यथा वयम् एकवारं घटः कार्यादिकरणम् इति स्वीकृतवन्तः, एकवारं कपालः इति स्वीकृतवन्तः खलु. एवमेव चिन्तयतु, पिष्टम् इति मास्तु, जलम् इति कार्यादिकरणं स्वीकरोतु, तदा किं भवति?
तदा पिण्डीभावः स्वसमवायीसंयुक्तत्वेन जले अस्ति. अनन्तरं स्नेहस्वसमवायसम्बन्धेन जले अस्ति.
तदा स्व इति न वक्तव्यं, यत्र परम्परा न अपेक्षिता तदा स्व इति न आवश्यकमेव, केवलं स्नेहः समवायेन कुत्र अस्ति?
जले.
जले.
समीचीनमेव भगिनि, इति द्रष्टव्यमस्ति. तत्रापि स्वाश्रयसंयुक्तत्वसम्बन्धः अभवत् किं कार्यतावच्छेदकसम्बन्धः खलु. तस्मिन् सन्दर्भे पिण्डीभावः जले अस्ति इति वदामश्चेत् पिण्डीभावः स्वाश्रयसंयुक्तत्वेन जले अस्ति, स्नेहः समवायेन जले अस्ति इति आगत्य कार्यतावच्छेदकसम्बन्धः कः?
कार्यतावच्छेदकसम्बन्धः स्वाश्रयसंयुक्तत्वसम्बन्धः, कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः.
तदपि युगलं, तद् पेर् अस्ति खलु. अन्यत्र कुत्रापि दृष्टं वा समवायिस्थले अन्ततो गत्वा तर्हि स्नेहः कीदृशं कारणं?
निमित्तकारणं.
निमित्तकारणमेव इति आयाति. अस्तु
अस्तु,
अत्र कोऽपि प्रश्नः वा?
भगिनि, यथा भवती उक्तवती पूर्वस्मिन् वर्गे पदार्थः द्रव्ये भिन्नत्वम् अस्ति चेत् तत्र सारल्येन द्रष्टुं शक्नुमः. यत्र संयुक्तत्वं भवति तत्र निमित्तकारणमेव.
पुनः पृच्छतु भगिनि, पदार्थः
द्रव्यभिन्नत्वम् अस्ति खलु?
समीचीनम्. आम्, द्रव्यभिन्नत्वम् अस्माभिः पूर्वमपि एकवारं पठितं, स्मरन्ति वा? संख्यां प्रति निमित्तकारणं किम्?
संख्यां प्रति निमित्तकारणम् एकत्वं वा असमवायिकारणं?
ततो सरला भगिनी स्मरति
भगिनी,
अपेक्षा बुद्धिः इति स्मरति? अपेक्षा बुद्धिः कुत्र भवति? आत्मनि भवति. बुद्धिः इत्युक्ते ज्ञानम्, आत्मनि अपेक्षा बुद्धिः भवति. किन्तु संख्या इति गुणः कुत्र भवति? घटे पटे तत्रापि द्रव्यान्तरं जातं खलु. तत्रापि एवमेव स्वाश्रयसंयुक्तत्वसम्बन्धेन कल्पयितुं शक्नुमः कार्यं वा अथवा कारणं। तर्हि प्रायः यत्र तादृशद्रव्यान्तरं जायते तत्र निमित्तकारणत्वमेव वक्तुं शक्यते इति भाति, यतोहि मध्ये संयुक्तत्वसम्बन्धः आगच्छति इति मम चिन्तनम्।
इत्युक्ते अत्र विलक्षणसंयोगनिष्ठ एव भवितुम् अर्हति, तत्र एव स्नेहः भवति इति वा?
तत्रैव निमित्तकारणं भवति
महोदय। विलक्षणसंयोगः इत्युक्ते विशिष्टसंयोगः, तस्य नामकरणं पिण्डीभावः। वदतु महोदय।
तत्रैव स्नेहः इति गुणः भवति इति एव अस्ति किल, अत्र
विपरीतत्वेन वक्तव्यं, यतोहि स्नेहः कारणं खलु, पिण्डीभावः कार्यं, तर्हि विपरीतत्वेन वक्तव्यं, यत्र स्नेहः भवति तत्र पिण्डीभावः इति आगच्छति।
इत्युक्ते अत्र द्रव्य मम प्रश्नः अस्ति, अत्र जलं च तैलम् इति स्वीकुर्मः चेत् तत्र संयोगः एव भवति किल, अत्र स्नेहः इति भावः सर्वदा न भवति इति।
वस्तुतः तत्रापि किञ्चित् स्नेहः अस्ति इति भाति, तैलम् अपि च जलम् इति स्वीकुर्मश्चेदपि तैलं स्नेहः इति मनसि एतद् भवेत् यद् स्नेहः इत्युक्ते यत्किमपि स्टिकि अथवा स्लिपरि अस्ति तादृशं, तैलम् इति केवलं लिक्विड् नास्ति खलु, जलं नास्ति, तत्र पार्थिवपदार्थाः अपि स्युः किञ्चित्। अनेन वक्तुं शक्यते प्रायः यत् जलगतस्नेहेन तत्रापि पिण्डीभावः आगतः इति।
इत्युक्ते अत्र पिष्ट पिण्डीभावः नास्ति अथवा अस्ति इति एव वदति वा?
हा, इति एव मम चिन्तनमस्ति। अन्ये किं चिन्तयन्ति?
पुनः प्रश्नः भगिनि।
महोदय पृष्टवान् तैले यदा जलं संयोजयामः तदा तदा किं चिन्तनम्?
तदा स्नेहः जले अपि अस्ति, तैले अपि अस्ति, तैलमपि जल
हा तैलं तैलम् अवश्यं जले अस्ति, तदर्थं तैले अपि किञ्चित् तादृशस्नेहः अस्ति इति वक्तुं शक्नुमः, जलगतस्नेहः, यतोहि स्नेहः इति पश्यामश्चेत् स्लिपरि स्टिकि तथा भवति खलु अर्थः।
तैलम् इति द्रव्यं पृथ्वी
मिश्रितं स्यात् भगिनि, मम मति अनुगुणं तत्र पश्यतु पेज् नम्बर् 110 मध्ये तत्रापि किञ्चित् अस्ति, तैलसंयोगेन दीपविशेषः अधो गच्छति इति किमपि अस्ति खलु, किमर्थं, यतोहि तैलं तैलबिन्दवः मिश्रितः, पृथिवीकणाः जलकणाः सन्ति इति मम चिन्तनमस्ति।
भगिनि पिण्डीभाव स्नेहविहाय न भवति जलस्य स्नेह
भवती किं चिन्तयति?
न भवति,
न भवति खलु, पिण्डीभावः इति विलक्षणसंयोगः, यत्किमपि विकीर्णः आसीत् पिष्टमिव तस्य एकत्रीकरणं भूत्वा विलक्षणसंयोगः जायते खलु, तदेव इति चिन्तयामि। अस्तु अस्तु, तर्हि अत्र स्थगयामः। धन्यवादः, शुभरात्रिः।
धन्यवादः।